एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। विसूचिकायाः कारणेन पर्सा जनपदे पश्चात् चतुर्विंशतेः घण्टानाम् अभ्यन्तरे जनत्रयम् मृतम् वर्तते। वीरगंज स्थाने अतिसारस्य प्रकोपस्य प्रसरणानन्तरम् रुग्णानाम् जनानां परीक्षणे विहिते सति अधुनावधि अतिसारस्य रोगिषु अष्टाविंशत्यां जनेषु विसूचिकायाः संक्रमणं पुष्टीभूतम् अस्तीति वीरगंजवर्तिनः जनपद स्वास्थ्य कार्यालयस्य अधिकृतः जयमोदः ठाकुरः असूचयत्। वीरगंजवर्तिनः नारायणी चिकित्सालयस्य सूचनाधिकारिणः डाक्टर उदय नारायण सिंहस्य अनुसारेण चिकित्सालये उपचाररतानां अतिसारस्य पञ्चदशानां रोगिणां मध्ये ह्य पञ्चसु जनेषु विसूचिकायाः संक्रमणं पुष्टीभूतं वर्तते। अत्रान्तरे वीरगंज महानगर क्षेत्रे विसूचिकायाः संक्रमणस्य वर्धनस्य पश्चात् तस्य नियन्त्रणाय महानगरपालिकया नगरक्षेत्रस्य सर्वे सामुदायिकाः संस्थागताश्च विद्यालयाः दिनद्वयस्य कृते पिधापिताः वर्तन्ते। सैव महानगरपालिकया संक्रमणात् आत्मानं रक्षितुं विशेष सावधानतायाः अवलम्बनाय सर्वे अनुरुद्धाश्च सन्ति। अत्रान्तरे वीरगंजनगर क्षेत्रे दृष्टायाः विसूचिकायाः नियन्त्रणाय मधेस प्रदेश सर्वकारेण स्वास्थ्योपचार समूह परिचालितो वर्तते। संक्रमणस्य नियन्त्रणस्य कार्यम् उपचार सेवां च अतिरिक्त प्रभावकारिणीं विधातुम् आवश्यक समन्वयाय स्वास्थ्य जनसंख्या मन्त्रालयस्य महाशाखा प्रमुखस्य डाक्टर विपिन कुमार झा इत्यस्य जनस्वास्थ्याधिकृतस्य सन्तोष कुमार ठाकुरस्य च नेतृत्वे स्वास्थ्य समूह परिचालितो स्थिति मुख्यमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। एवमेव प्रदेशस्य स्वास्थ्य जनसंख्या मन्त्रिणा शत्रुघ्न प्रसाद सिंहेन अपि प्रभावित क्षेत्रेषु स्वास्थ्यकर्मिणः परिचालयितुं सम्बद्ध पक्षाः निर्दिष्टाः वर्तन्ते। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति आगामी आश्विन मासान्तं यावत् स्थानीयैः निकायैः प्रथम सेवायाः केन्द्रस्य रूपेण आधारभूत स्वास्थ्य सेवाः प्रारभ्यते। विराटनगर विमानस्थले ह्य संचारकर्मिभिः सह भाषमाणः मन्त्री पौडेलः नागरिकेभ्यः सहजतया सरलतया च स्वास्थ्य सौविध्यं प्रदातुं स्थानीय निकायेषु स्वास्थ्य सुरक्षण प्रथम सेवा केन्द्रं प्रारप्स्यते इति असूचयत। सर्वकारीय चिकित्सालयानां विशिष्टीकृतोपचार केन्द्रत्वेन विभाजनं च विहितमस्ति इति च मन्त्री पौडेलः प्रावोचत। नागरिकाणां स्वास्थ्यं प्रति संवेदनशीलतया आधारभूतेषु विशिष्टीकृतेषु च चिकित्सालयेषु जटिलानां रोगाणाम् उपचारस्य व्यवस्था विहितास्ति इति असौ अगदत्। नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः भासते नेपालस्य सहमतिं विनैव चीन भारत देशाभ्याम् नेपाल भूमेः प्रयोगस्य प्रयास अनुचितो वर्तते। दाङ जनपदस्य घोराई नगरे प्रेस चौतारी नेपालस्य दाङ शाखया ह्य आयोजिते पत्रकार सम्मेलने महासचिव पोखरेलः लिम्पियाधुरा लिपुलेक कालापानी क्षेत्राणि नेपालस्यैव वर्तन्ते अतः तथ्यानि प्रमाणानि चाधृत्य समस्यानां समाधानाय प्रयत्नः करणीयः इत्यत्र बलं प्रादात्। महासचिव पोखरेलः पूर्व राष्ट्रपतेः दलस्य सक्रियायां राजनीतौ पुनरागमनम् उचितं नास्तीति अगदत्। ह्य एव नेकपा एमाले दलस्य दाङ जनपद प्रतिनिधि परिषदं सम्बोधयन् महासचिव पोखरेल दलस्य निर्माणाय सर्वैः ऐक्यबद्धैर्भाव्यमित्यत्र बलं दत्तवान्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा जनतायाः भावनायां समस्यासूच केन्द्रिताः सन्तो विहिता राजनीतिः कदापि न सफलायते। वीरगंजोद्योग वाणिज्य संघेन ह्य वीरगंज नगरे आयोजिते प्रदीप गिरी इत्यस्य स्मरणे आत्मा अथ च संघर्ष इति नामके कार्यक्रमे महामन्त्री थापा कस्यापि देशस्य सीमातः अधिकमहत्वस्य विषयः जनता भवतीति प्रत्यपादयत्। एवमेव नेपाली कांग्रेस दलस्य पर्सा जनपद शाखया वीरगंज नगरे एव आयोजिते कार्यकर्तृमेलने महामन्त्री थापा दलस्य अधिवेशनं निर्धारित समये भविष्यति इति समस्पष्टयत्। भियतनाम देशस्य उपराष्ट्रपतिना बोथियान सुआन इत्यनया सह परराष्ट्रमन्त्रिणा डाक्टर अर्जुनाणा देउवा इत्यनया इह शिष्टाचार मेलवार्ता विहिता अस्ति। उपराष्ट्रपतेः रामसहाय प्रसाद यादवस्य मैत्रीपूर्णायां निमन्त्रणायां नेपालस्य भ्रमणस्य क्रमे इह काष्ठमण्डपं प्राप्तया उपराष्ट्रपतिना भो इत्यनया सह मन्त्रिणा डाक्टर राणा इत्यनया मेलवार्ता विहिता अस्ति। मेलनस्य अवसरे नेपाल भियतनाम देशयोः सम्बन्धस्य विविधानां पक्षाणां द्विपक्षीयस्य हितस्य अभिरुच्यश्च विविधेषु विषयेषु विमृष्टमस्तीति ज्ञापितं वर्तते। शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्त साहित्यिक चिन्तनेन सामाजिक न्यायस्य विषयाणां प्रसारं सुदृढं विधातुं नूतन सन्ततिं साहित्येन सह योजयितुं बलं ददाति। ह्यः काष्ठमण्डपे आयोजिते साहित्य सन्ध्या वार्षिक पुरस्कार सम्मान प्रदान कार्यक्रमे मन्त्री पन्त विश्वे आर्थिक स्वार्थस्य कारणेन न्यायस्य स्वरः तिरस्क्रियमाणाः सन्तीति उक्तवान। कार्यक्रमे शिक्षा स्वास्थ्य सामाजिक सेवासु संलग्नाः पञ्चजनाः सम्मानिताः आसन्। झापा स्याङ्जा जनपदयोः विद्युत् प्रवाह स्पर्शेन जनद्वयं मृतं वर्तते। झापा जनपदस्य कन्काई नगरपालिकायां विद्युतः स्तम्भात् खोलिका नद्यां विद्युतः प्रसरणं प्रसार्य मत्स्यमारणस्य क्रमे विद्युत् प्रवाह स्पर्शेन कन्काई नगरपालिकायाः प्रथमवडा क्षेत्रस्य 37 वर्षीय पंकज माझी मृतोस्ति। एवमेव स्याङ्जा जनपदस्य पुतली बजार नगरपालिकायाः नवमवडा क्षेत्रस्य कुल्मास्थाने विद्युतस्तम्भे आरुह्य अन्तर्जाल प्रणाली सम्बद्ध कार्यस्य सम्पादनस्य क्रमे विद्युत् प्रवाह स्पर्शेन एको जनः मृतोस्ति। मृतकः रौतहट जनपदस्य गुजरा नगर पालिकायाः प्रथमवडा क्षेत्रस्य रंगपुरस्य सम्प्रति पोखरा फाइबर अन्तर्जाल सञ्जाल प्रणाल्यां कार्यं विदधानः 25 वर्षीय अरूण कुमार चौधरी अस्तीति स्याङ्जा जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रसन्न राज चौधरी असूचयत। स्कर्प टाइफस रोगस्य कारणेन ह्य चितवन जनपदे एका महिला मृतास्ति। भरतपुर चिकित्सालये उपचारस्य क्रमे बर्दघाट नगरपालिकायाः 13 वडा क्षेत्रस्य 37 वर्षीया महिला मृतास्तीति ज्ञापितं वर्तते। जनस्वास्थ्य कार्यालयस्य प्रमुखस्य दिनेश रूपाखेती इत्यस्य अनुसारेण जनपदस्य विभिन्नेषु चिकित्सालयेषु उपचारस्य कृते गतेषु रोगिषु 370 जनेषु स्कब टाइफस इति रोगस्य संक्रमणं पुष्टीभूतं वर्तते। त्रिभुवन राजपथस्य हेटौडा काष्ठमण्डप मार्गखण्डे भीमफेदी ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य बाघझोरा स्थानस्य समीपे शुक्रवासरस्य रात्रौ भूस्खलनेन अवरुद्ध मार्ग ह्य सञ्चालितोऽस्ति। डोजरयानानां सहयोगेन भूस्खलनस्य अपसारणानन्तरं मार्गोऽसौ पुनः सञ्चालितोऽस्तीति प्रहरिणा ज्ञापितं वर्तते। कञ्चनपुर जनपदस्य शुक्लाफाटा नगरपालिकायाः 11 वडा क्षेत्रस्य अवकर व्यवस्थापन केन्द्रे सामुदायिक वनोपभोक्ति समूहेन तालबन्धनानन्तरं नगर क्षेत्रस्य अवकर संकलनस्य विसर्जनस्य च कार्यं पूर्णरूपेण अवरुद्धं वर्तते। दिनत्रयात् पूर्वं श्रीकृष्ण सामुदायिक वनोपभोक्ति समूहेन 11 सूत्रीय सहमतेः क्रियान्वयनस्य याचनां विधाय केन्द्रे तालबन्धनस्य पश्चात् झलारी वन समिति कलुवापुर क्षेत्राणाम् आपण क्षेत्राणि समस्याग्रस्तानि वर्तन्ते। कोशी राजमार्गस्य अन्तर्गते भुटखोला खण्डे दुरापन्नस्य भूस्खलनस्य कारणेन दिवस चतुष्टया तत्र क्षेत्रे मार्ग अवरुद्धोऽस्ति। खान्द्वारी स्थानस्य किमाथाङ्का सीमा प्रवेश बिन्दोः योजक आसन्न 15.1 किलोमीटर मित दूरीया मार्गोऽसौ भूस्खलनस्य कारणेन पूर्णत अवरुद्धोऽस्ति। इति समाचारः।